सर्वेषां पाणिनीव्याकरणवर्गं प्रति स्वागतम्. आदौ मङ्गलाचरणं कुर्मः, पश्चात् पाठः आरभ्यते. भगिनी एकवारं स्मारयतु.
येनाक्षरसमां न्यायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन दौतागिरपुंसां विमलैः शब्दवारिभिः तमज्जज्ञानजं भिन्नं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्.
साधु भगिनी, धन्यवादाः. अष्टाध्याय्यां प्रत्ययः, प्रक्रिया च, समग्रदृष्टिः इति पाठः पूर्वमेव आरब्धः. पूर्वस्मिन् वर्गे सूत्राणां चिन्तनं कृतमासीत्. अष्टाध्याय्यां प्रत्ययः, प्रक्रिया च, समग्रदृष्टिः इति करपत्रे आदौ कानिचन सूत्राणि दत्तानि खलु. तानि सूत्राणि परिचितानि, अधीतपूर्वाणि. अधीतपूर्वाणि सूत्राणि कानि? सार्वधातुकार्धधातुकयोः, पुगन्तलघु उपधस्य च, सार्वधातुकम् अपित् क्निति च, इमानि चत्वारि सूत्राणि अधीतपूर्वाणि. किन्तु गते वर्गे अत उपधायाः अचोयिणिति इति सूत्रद्वयं विस्तरेण पठितवन्तः. अद्य अभ्यासं कुर्मः. अभ्यासार्थं सर्वे सिद्धाः इति मन्ये. करपत्रे केचन धातवः दत्ताः, तत्र सूचना अपि दीयते. कानि कानि रूपाणि साधनीयानि, तान् धातून् उपयुज्य इति अत्रैव दीयते. इत्युक्ते धातवः दत्ताः, तेभ्यः धातुभ्यः प्रत्ययान् संयुज्य रूपाणि साधनीयानि. अत्र कति धातवः सन्ति इत्युक्ते नवधातवः सन्ति. आदौ भुवादिगणीयनीधातोः प्रसङ्गः अस्ति. नीधातुतः कानिचन रूपाणि साधनीयानि, सार्वधातुकप्रक्रियाम् उपयुज्य कानिचन रूपाणि, आर्धधातुकप्रक्रियाम् उपयुज्य अन्यानि रूपाणि साधनीयानि. प्रथमतया एका सूचना दत्ता, इत्युक्ते प्रत्येकं धातुम् आदाय लट्लकार प्रथमपुरुषे एकवचनरूपं साधयतु, णिजन्तरूपं साधयतु, क्त्वान्तरूपं साधयतु, तुमुन्नन्तं रूपं साधयतु इति. इतोपि अधोभागे एका अन्या सूचना दत्ता, तस्यां सूचनायाम् आर्धधातुक कृदन्तरूपाणि साधयन्तु इति लिखितमस्ति. अतः अद्य नीधातुं स्वीकृत्य सार्वधातुकप्रक्रियाम् उपयुज्य कानिचन रूपाणि, आर्धधातुकप्रक्रियाम् उपयुज्य कानिचन आर्धधातुककृदन्तरूपाणि साधयामः. गते वर्गे नीधातुतः नयति, नयते इति रूपद्वयं साधितवन्तः. किमर्थं चेत् नीधातुः उभयपदी धातुः, भुवादिगणे नीधातुः अस्ति. प्रक्रियाम् अवगन्तुं सूचना पठनीया खलु. सुजाता भगिनी, भवती एव पठतु. अभ्यासः इत्यत्र सूचना दीयते, पठतु.
प्रत्येकं धातुम् आधाय इमानि रूपाणि परिशील्य निष्पादयतु. लट्लकारस्य प्रथमपुरुषे एकवचनान्तरूपं, त्वा प्रत्ययान्तं रूपं, निच् प्रत्ययान्तधातोः लट्लकारस्य प्रथमपुरुषे एकवचनान्तरूपं, तुमुन् प्रत्ययान्तरूपं, प्रत्येकस्य स्थितौ धातुः कीदृशः, इगन्तधातुः या इगन्तभिन्नः, अजन्तधातुः, लघु इगुपदधातुः, अल्पदधातुः, अपि च प्रत्ययः कीदृशः, सार्वधातुकं पित् सार्वधातुकमपित्, सार्वधातुकं कित् नित्, आर्धधातुकं नित् नित्, आर्धधातुकं कित् नित् नित् णित् भिन्नः इति वक्तव्यम्.
स्पष्टं खलु? चत्वारि रूपाणि साधनीयानि, लट्लकार प्रथमपुरुष एकवचनान्तरूपं, क्त्वान्तरूपम्, आदौ णिच् प्रत्ययान्तधातुं निर्मामः, पश्चात् णिच्युक्तं लटीरूपं साधनीयं, तुमुन्नन्तं रूपं साधनीयम्. अग्रे इतोपि लिखितमस्ति. अग्रे अपि एका अन्या सूचना दत्ता, तदपि पठतु.
अग्रे एतान् द्वितीयबिन्दुः अस्ति भगिनि.
आम्,
एतान् एव धातून् नी ची दा गै मा बुद् लिख् पट् आदाय एतेषां प्रत्ययानां संयोजनेन कथमपि च किं रूपम् उत्पद्यते इति चिन्तयतु. प्रत्येकस्यां स्थितौ धातुः कीदृशः, इगन्तधातुः इगन्तभिन्नः भिन्ना अजन्तधातु लघु इगुपदधातु अल्पदधातु अपि च प्रत्ययः कीदृशः, सार्वधातुकं पित् सार्वधातुकम् अपित् आर्धधातुकं कित् नित् आर्धधातुकं लित् नित् आर्धधातुकं कित् नित् 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 नो नो नित् 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 भिन्नः इति वक्तव्यम्.
उत्तमम्. नी धातुतः आदौ चत्वारि रूपाणि, उपरितनभागे चत्वारि रूपाणि साधनीयानि. नी धातुतः नुवुलन्तं रूपं, तृजन्तरूपं, क्तान्तरूपं, क्तवत्वन्तरूपं, तव्यत् प्रत्ययान्तरूपम्, अन्यर् प्रत्ययान्तरूपं, क्तिन् प्रत्ययान्तरूपं, ल्युडन्तरूपं साधनीयम्. एवं रूपाणि साधनीयानि. गते वर्गे चर्चितमासीत् नी उभयपदी धातुः, अतः नयति नयते रूपद्वयं कथं साधनीयं, शीघ्रं वदतु. अग्रे सरेम.
नी धातुः नूनः इच्छनेन नी नी भवति. नी इगन्तधातुः अस्ति. भवादिगणे धातुः नी इच्छनेन स्वरितनितः कर्तृभिप्राये क्रियाफले इच्छनेन उभयपदी भवति. धातुः क्रियाफलं कर्तारम् अभिप्रेति चेत् आत्मनेपदी. शेषात् कर्तरि परस्मैपदं पदम् इच्छनेन परस्मैपदी भवति.
धातुः उभयपदी अस्ति. कस्यां दशायां तस्य अनन्तरम् आत्मनेपदप्रत्ययाः आयान्ति, कदा परस्मैपदसंज्ञकप्रत्ययाः आयान्ति इति प्रश्ने सति क्रियाफलं कर्तारम् अभिप्रेति चेदेव आत्मनेपदप्रत्ययाः आयान्ति, नो चेत् परस्मैपदी भवति. धातुः उभयपदी धातुः, अपि च इडागमविचारः करणीयः. वदतु.
इडागमः अनुदात्तः अस्ति, स्वरः अनुदात्तः अस्ति. उपदेशे अनुदात्तात् इच्छनेन प्रत्यय अनिट् भवति.
णीङ् इति औपदेशिकधातुतः अनुबन्धवर्णानां लोपकार्यानन्तरं लौकिकधातुः णी इति लभ्यते. णी धातौ एकः एव अचुवर्णः अस्ति, सः अचुवर्णः अनुदात्तः अस्ति. णी इत्यत्र नकारोत्तरवर्ति ईकारः अस्ति, सः ईकारः अनुदात्तः. अतः एकाच् धातुः अनुदात्तात् अस्ति इति कारणतः एकाच् उपदेशे अनुदात्तात् इति सूत्रेण अवशिष्टस्वरः इत्युक्ते अनुबन्धवर्णानां लोपकार्यानन्तरम् अवशिष्टस्वरः यः अस्ति सः स्वरः अनुदात्तः इत्यतः धातुः अनिट् भवति. एकाच उपदेशे अनुदात्तात् इति सूत्रेण धातोः अनिटत्वम् उच्यते, अतः धातुः अनिट् धातुः. धातुः अनिट् अस्ति चेत् प्रत्ययः सेट् अस्ति चेदपि तत्र इडागमः न भवति. इदानीं नयति नयते इति रूपद्वयं साधनीयं, किमर्थं चेत् धातुः उभयपदी अस्ति, लट्लकारप्रसङ्गः अस्ति. लट्लकारः सार्वधातुकलकारः, सार्वधातुकलकारेषु इडागमचिन्तनं नास्ति, अतः तस्य प्रसक्तिः इदानीम् अनावश्यकम्. किन्तु आर्धधातुकप्रक्रियायां धातुः सेट् वा अनिट् वा इति अवश्यं ज्ञातव्यं, किमर्थं चेत् आर्धधातुकप्रक्रियायाम् इडागमविचारः भवति. इदानीं नयति वदतु.
परस्मैपदिरूपम् अप्रत्ययः तिप् अस्ति प्रथमपुरुष एकवचनविवक्षायां. लट् प्रथमं लट् लट् आयाति,
किमर्थं लटायति?
वर्तमाने लट् इत्यनेन लट् प्रत्यये विधीयते.
उत्तमं. वर्तमानकालविवक्षा अस्ति इति कारणतः वर्तमाने लट् इति सूत्रेण लट् इति प्रत्ययः आयाति.
आयाति. तदनन्तरं लट् इत्यनेन तकारस्य हलन्त्यमित्यनेन इत्संज्ञा भवति. लकारोत्तरवर्ति अकारस्य इत्संज्ञा भवति. उपदेशे जननासिक इत्यनेन ला एव अवशिष्यते. नियोगः ला भवति. लस्य लास्थाने लस्य सूत्रेण तिबादयः आयाति. तिप्तस् जि सिप्तस्थ विप्वस्मस्तां जातां त्वं इद्वहि महिङ् इत्यनेन नियोगः तिप् भवति. परस्मै लहस्थाने तिबादयः आयाति.
अत्र तिबादयः इति कथनेन अस्माकं विवक्षा अस्ति लट्लकारप्रथमपुरुष एकवचनरूपं साधनीयं खलु. अतः तिप् प्रत्ययं स्वीकुर्मः. तिबादिषु तिप् प्रत्ययः एव अत्र आयाति. किमर्थं तिप् एव आयाति इति प्रश्ने सति तत्र इतोपि अन्यानि सूत्राणि स्मर्तव्यानि. इत्युक्ते अष्टादश तिबादिषु तिप् एव स्वीकर्तव्यं. किमर्थम् इति प्रश्ने सन्ति. अत्र परस्मैपदिरूपं साधनीयम्, अतः लः परस्मैपदम् इति सूत्रेण तिप् प्रत्ययः एव आयाति, न तु ता प्रत्ययः, खलु? इतोपि अन्यानि सूत्राणि कानि? तिङ्गस्त्रीणि, त्रीणि, प्रथममध्यमोत्तमाः, अपि च तान्येकवचन द्विवचन बहुवचनान्येकषः, शेषे प्रथमः. शेषे प्रथमः इति सूत्रेण तिप् प्रत्ययः प्रथमपुरुष एकवचनप्रत्ययः भवति, खलु?
आम् आं भगिनि.
वदतु.
नियोगः तिप् भवति. तस् पकारस्य इत्संज्ञा भवति. ति एव अवशिष्यते. सार्वधातुक भवादिगणे अस्ति इत्यनेन शप् प्रत्यय विधीयते.
अत्र किं वक्तव्यं? नियोगः तिप् इत्यत्र तिप् इत्यस्य अनुबन्धवर्णानां लोपकार्यानन्तरं ति एव अवशिष्यते. तिप् प्रत्ययः कीदृशः?
सार्वधातुकप्रत्ययः अस्ति. तिङ्क्षित् सार्वधातुकम् इत्यनेन
तिप् प्रत्ययः सार्वधातुककर्त्रर्थकप्रत्ययः. अतः धातोः परं सार्वधातुककर्त्रर्थक तिप् प्रत्ययः अस्ति इति कारणतः धातुः तिप् प्रत्ययं साक्षात् पश्यति इति कारणतः तिप् प्रत्ययं निमित्तीकृत्य शप् आगन्तुं शक्नोति.
नियोगः शप् योगः ति भवति. तिंशित् सार्वधातुकम् इत्यनेन कर्तरि शप् विधीयते. शप् इत्यस्य शकारस्य इत्संज्ञा भवति. लशक्वतद्दिते इत्यनेन पकारस्य हलन्त्यम् इत्यनेन इत्संज्ञा भवति. आ एव अवशिष्यते. नियोगः आयोगः ति भवति.
निधातुः कीदृशः?
इगन्तधातुः अस्ति.
उत्तमम्. इगन्तम् अङ्गं, धातुरूपी अङ्गम् अस्ति.
इगन्त अङ्गम् अस्ति इत्यनेन गुणः भवति.
शप्रत्ययं निमित्तीकृत्य गुणः भवति. धातुरूपी अङ्गे शप्रत्ययं निमित्तीकृत्य गुणकार्यं भवति. केन सूत्रेण?
सार्वधातुक अर्धधातुकयोः इत्यनेन.
उत्तमं. वदतु.
ने योगः आयोगः ति भवति. इगन्ताङ्गस्य गुणः भवति इत्यनेन ई ए भवति. ने योगः आयोगः ति अस्य एकारस्य ऐ आदेशः भवति. एचु यवायावः इत्यनेन ऐ आदेशः भवति.
सन्धेः नाम किम्?
एचो यवायावः इत्यनेन.
एचो यवायावः इति सन्धिसूत्रमस्ति.
यन्तवान्तसन्धि
अयादिसन्धिः अथवा यान्तवान्तादेशसन्धिः. वदतु.
अयोगः आयोगः ति नयति निष्पद्यते वर्णमेलनमेन वर्णानां मेलनेन.
उत्तमं. तिप् प्रत्ययं निमित्तीकृत्य नय इति अङ्गम् अस्ति. नय इति अङ्गम् इगन्तं नास्ति इति कारणतः अत्र द्वितीयवारं गुणकार्यस्य प्रसक्तिः नास्ति. तिप् प्रत्ययस्य कृते अङ्गमस्ति नय. तिप् प्रत्ययं निमित्तीकृत्य अङ्गकार्यं नास्ति, अतः केवलं वर्णमेलनेन नयति इति रूपं सिद्ध्यति. निधातुः उभयपदी धातुः, अतः आत्मनेपदीरूपमपि वक्तव्यं. वदतु.
आत्मनेपदीरूपं प्रत्ययता भवति लट् लकारस्य प्रथमपुरुष एकवचनान्तरूपं विवक्षायां. नियोगः लट् वर्तमाने लट् इत्यनेन लट् आयाति. लट् इत्यस्य टकारस्य अन्नासिककारस्य इत्संज्ञा भवति, ला एव अवशिष्यते. नियोगः ता लस्य इत्यनेन लस्य स्थाने तङ्गानाम् आत्मनेपदी इत्यनेन ता आयाति.
उत्तमं. तिप् तस् झि इति दीर्घं सूत्रम् अस्ति. तस्मिन् सूत्रे अष्टादश तिङ्प्रत्ययाः सन्ति, किन्तु अस्माकं विवक्षानुगुणम् आत्मनेपदीरूपं साधयितुमिच्छामः, अतः आत्मनेपदप्रत्ययाः एव विधीयन्ते इति कारणतः अत्र तङ् प्रत्ययाः आत्मनेपदसंज्ञकाः. ता इति प्रत्ययः किमर्थम् आयाति इति प्रश्ने सति तत्र तङ्गानाम् आत्मनेपदम् इति सूत्रेण ता इति प्रत्ययः आयाति. अग्रे वदतु.
तानि एकवचन द्विवचन बहुवचन बहुवचनान्येकषः शेषः इत्यनेन प्रथमः सम्यक् अस्ति भगिनि.
शेषे प्रथमः इत्युक्ते आदौ केचन प्रत्ययाः उक्ताः, तान् विहाय शेषप्रत्ययाः प्रथमपुरुषप्रत्ययाः भवन्ति इति अर्थः खलु. पूर्वं सूत्रद्वयम् उक्तम् अस्ति, तान् प्रत्ययान् विहाय शेषप्रत्ययाः प्रथमपुरुषप्रत्ययाः भवन्ति. अत्र ता इति प्रत्ययः आत्मनेपदप्रत्ययः अपि च प्रथमपुरुष एकवचनप्रत्ययः. वदतु.
आत्मनेपदानां चेरे इच्छनेन ते आयाति. टित् स्थाने आयाति. तकारे अकारः ता अकारः अस्ति. तस्य स्थाने ये आदेशः भवति. टि स्थाने ये आदेशः भवति ते भवति.
अत्र किं वक्तव्यम्? इदं सूत्रं टित् लकाराणां प्रसङ्गे कार्यं करोति. टित् लकाराणाम् आत्मनेपदसंज्ञकप्रत्ययानां टि भागस्य स्थाने एकारादेशः. भगिनी वदतु.
आत्मनेपदानां तेरे इत्यनेन नि तिङ्क्षित् सार्वधातुकम् अस्ति. ते प्रत्ययः तिङ् अतः सार्वधातुकं. कर्तरी शप् विधानं भवति. नि योगः शप् योगः ते भवति. शप् इत्यस्य शकार पकार पकारस्य संज्ञा भवति. आ एव अवशिष्यते. सूत्रं वदनीयं भगिनि.
अत्र इतोपि किं वक्तव्यं? नि धातुः भुवादिगणे अस्ति इति कारणतः शप् यथावत् तिष्ठति, तत्र किमपि परिवर्तनं न भवति खलु. नियोगः शप् योगः ते.
तदनन्तरं शप् इत्यस्य शकारपकारस्य संज्ञा भवति. आ एव अवशिष्यते. नियोगः आयोगः ते भवति. तिङ्क्षित् सार्वधातुकम् इत्यनेन इगन्तम् अङ्गम् अस्ति.
तिङ्क्षित् सार्वधातुकम् इति सूत्रेण किं भवति?
तिङ्क्षित् सार्वधातुकम् इत्यनेन शप् आयाति.
तिङ्क्षित् सार्वधातुकं सूत्रेण शप् न आयाति. शप् किमर्थम् आयाति इत्युक्ते ते इति प्रत्ययः तिङ् प्रत्ययः अस्ति. तिङ् प्रत्ययः तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञकप्रत्ययः अपि च कर्तृर्थकप्रत्ययः अतः ते इति सार्वधातुक कर्तृर्थक तिङ् प्रत्ययं तं प्रत्ययं निमित्तीकृत्य कर्तरि शप् सूत्रेण शपायाति अपि च अत्र तिङ्क्षित् सार्वधातुकम् इत्यस्य प्रसक्तिः किमर्थम् अस्ति इत्युक्ते अत्र इतोपि कार्याणि अङ्गकार्याणि भवन्ति खलु वदतु
अङ्गकार्याणि
शप्रत्ययं निमित्तीकृत्य अङ्गकार्यं
निमित्तीकृत्य अङ्गकार्यं भवति नी योगः आयोगः ते नी ने भवति इगन्त अङ्गमस्ति शप्रत्ययस्य अवशिष्टः अकार आ अस्ति जनेन ये ने योगः आयोगः ते भवति तिङ्क्षित् सार्वधातुकं शप् षित् सार्वधातुकं पित्
अपि अतः एव शप्रत्ययं निमित्तीकृत्य नि इति धातुरूपी अङ्गे सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भूत्वा नि इत्यस्य रूपं ने भवति अङ्गकार्यम् अभवत् सन्धिकार्यं करोतु
ने योगः आयोगः ते ने ये चो वायावः इत्यनेन ऐ आदेशः भवति न योगः ऐ योगः आ योगः ते भवति अयादेशः भवति
भवति खलु
अयादेशः भवति इत्यनेन नय अङ्गं भवति ते प्रत्यय नय अङ्गं ते प्रत्यय अस्ति तिङ्क्षित् सार्वधातुकं ते अस्ति अपित् च ते प्रत्यय अपित् अपित् वि अस्ति इत्यनेन गुणकार्यं न भवति वर्णमेलनमेन वर्णानां मेलनमेव भवति नयते भवति
उत्तमम् अत्र नय इति अङ्गमपि इगन्तं नास्ति इगन्तम् अङ्गं नास्ति इत्यतः गुणकार्यं न भवति केवलं वर्णमेलनेन नयते इति रूपं भवति साधु धातुः उभयपदी अतः रूपद्वयम् अग्रिमं रूपमस्ति नीधातुतः क्त्वान्तरूपं साधनीयं नीधातोः क्त्वान्तरूपं नीत्वा अत्र प्रक्रिया भिन्ना अस्ति नीधातुतः नीत्वा इति रूपसिद्धिः आर्धधातुकप्रक्रियायाम् आयाति नीलं भगिनि नीत्वा इति रूपं साधयतु
अस्तु महोदय अत्र नीधातु यथा वयं दृष्टवन्तः नीधातु अनिट् अस्ति तत्र इडागमः न भविष्यति नियोगत्वा कुर्मः चेत् त्वा इति प्रत्ययः तिङ्क्षित् भिन्नः अतः त्वा इति प्रत्ययः अर्धधातुकं शेषः इत्यनेन त्वा प्रत्ययः अर्धधातुकप्रत्ययः अस्मिन् प्रत्यये ककारः इति संज्ञकः इत्युक्ते लशक्कु तदिते अतदिते इति सूत्रेण ककारस्य इति संज्ञा भवति अनन्तरं तस्य लोपः इति सूत्रेण लोपः भवति सो अत्र यः अर्धधातुकप्रत्ययः अस्ति सः कित् आर्धधातुकप्रत्ययः सो अत्र किनिति च इति सूत्रेण गुण अपि च वृद्धिकार्यं निषिध्यते धातुः इगन्तम् अस्ति तथापि तत्र गुणकार्यं न भविष्यति इत्युक्ते किनिति च इति सूत्रेण तत्र बाधा भवति गुणस्य कृते सो नियोगत्वा कुर्मः चेत् अत्र यः त्वा इति प्रत्ययः सः ईडानुकूलः अस्ति इत्युक्ते तत्र आर्धधातुक् षेड् वलादेः इति सूत्रेण तत्र यः आदिम् अनुबन्धलोपान्तरं यः प्रत्ययस्य आदिं वर्णः सः तकारः वल् प्रत्याहारस्य वर्णः अतः त्वा इति प्रत्ययः ईडानुकूलः
भगिनी अत्र इतोपि किञ्चित् वक्तव्यं आर्धधातुकस्य येड् वलादेः इति सूत्रेण तकारः वलादिवर्णः एव, किन्तु कृदतिङ् इति सूत्रेण अयं प्रत्ययः कृत् प्रत्ययः खलु, इत्युक्ते आर्धधातुककृत् प्रत्ययः अस्ति चेत् इतोपि अन्यत् सूत्रमपि परिशीलनीयम्। कृदतिङ् सूत्रेण क्त्वा प्रत्ययः कृत् प्रत्ययः भवति, अतिङ् प्रत्ययः अतः कृत् प्रत्ययः, आर्धधातुककृत् प्रत्ययः अतः, वदतु।
अतः अत्र नेड् वशीकृति इति सूत्रेण तदपि द्रष्टव्यं। सो अत्र यः वर्णः आदिमवर्णः अस्ति सः वश् प्रत्याहारस्य वर्णः न, अतः अत्र नेड् वशीकृति इति सूत्रेण तत्र तस्य प्रसक्तिः न भवति। सो अत्र इडनु प्रत्ययः इडनुकूलः, परन्तु धातु इडनुकूलः नास्ति।
धातुः इडनुकूलः नास्ति इति उक्तवती कथम्?
तत्र यः अवशिष्टस्वरः सः अवशिष्टस्वरः तत्र एकं सूत्रम् अस्ति एकाच उपदेशे अनुदातात्। सो अत्र धातु एकाच् तु अस्ति, परन्तु यः अनुदात् अत्र यः अवशिष्टस्वरः सः अनुदात् स्वरः अहं चिन्तयामि। सो अत्र धातु इड तत्र अनिट् अस्ति, तेन सूत्रेण धातु अनिट् भवति।
धातुः अनिट् अस्ति किन्तु प्रत्ययः सेट् एव, इत्युक्ते धातौ अपि आनुकूल्यम् आवश्यकम् इडागमः भवितुं, प्रत्ययः अपि सेट् भवति चेत्, इत्युक्ते धातुः अपि च प्रत्ययः द्वयोर् इडनुकूलता वर्तते चेदेव तत्र इडागमः भवति। अपि च क्त्वा प्रत्ययः आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकसंज्ञकप्रत्ययः, अतः एषा प्रक्रिया आर्धधातुकप्रक्रिया, अतः इडागमविचारः अवश्यं भवति। वदतु।
सो अत्र इडागमः न भविष्यति, अतः अत्र किमिति च सूत्रेण गुणकार्यमपि न भवितुम् अर्हति, अतः अत्र केवलं नियोगत्वा कुर्मः चेत् वर्णमेलनेन तत्र नित्वा इति रूपं कृदन्तरूपं भवति।
उत्तमं। क्त्वा प्रत्ययः आर्धधातुक कित् प्रत्ययः, आर्धधातुक कित् प्रत्यये परे गुणनिषेधः भवति क्निति च सूत्रेण। पूर्वं चित्रं दृष्टवन्तः खलु, धातोः परम् आर्धधातुक कित् प्रत्ययः अथवा नित् प्रत्ययः अस्ति चेत् गुणनिषेधः भवति क्निति च सूत्रेण, तादृशं कार्यमेव अत्र भवति। क्त्वा प्रत्ययः आर्धधातुक कित् प्रत्ययः, अतः गुणनिषेधः भूत्वा यद्यपि नी इति धातुरूपी अङ्गम् इगन्तम् अङ्गमेव, किन्तु धातोः परं यः प्रत्ययः अस्ति प्रत्ययस्य स्वभावम् आश्रित्य धातौ अङ्गकार्याणि भवन्ति। अत्र प्रत्ययः कित् प्रत्ययः, अतः गुणनिषेधः, तेन नियुगहत्वा नीत्वा वर्णमेलनमेव इति विषयः। बहु सम्यक्। अग्रिमं रूपमस्ति णिच् प्रत्ययस्य योजनेन नूतनधातोः निर्माणं करणीयं, पश्चात् णिजन्तलटीरूपं साधनीयम्। नीधातुतः नायि इति नूतनधातुः, नाययति इति णिच्युक्तं लटीरूपं वक्तव्यम्। णिच् प्रत्ययः सनादिप्रत्ययेषु अन्यतमः, णिच् प्रत्ययस्य स्वभावः कः, एतत् सर्वं वक्तव्यं। भवती एव वदतु, नाययति।
णिच् प्रत्ययः पश्यामः चेत् तत्र नकारस्य इत् संज्ञा भवति चटु सूत्रेण इत् संज्ञा भवति, चकारस्य हलन्त्यम् इति सूत्रेण इत् संज्ञा भवति, अनन्तरं तस्य लोपः इति सूत्रेण द्वयोः लोपः, तत्र इकारः अवशिष्यते। सो नियोग इकारः कुर्मः चेत् तत्र निच् इति प्रत्ययः तिङ्क्षित् नास्ति, अतः अर्धधातुकं शेषः इत्यनेन तत्र निच् इति प्रत्ययः अर्धधातुक प्रत्ययः। सो अत्र नकारः इति संज्ञकः, अतः अर्धधातुक नित् प्रत्ययः अस्ति। सो अर्धधातुक नित् प्रत्ययः अस्ति अस्मिन् प्रत्यये, तत्र अर्धधातुक प्रत्ययः अस्ति, अतः तत्र इडागमस्य विषये अपि चिन्तनं करणीयम्। सो अत्र यः अवशिष्ट भागः सः इकारः, सो अत्रापि अर्धधातुक सेड् वलादेः इत्यनेन तत्र वल् प्रत्याहारस्य वर्णः न, अतः निच् प्रत्ययः अन्य इडनुकूलः नास्ति।
उत्तमम्। डिच् प्रत्ययस्य अनुबन्धवर्णानां लोपकार्यानन्तरम् ई एव अवशिष्यते, सः ई वर्णः वलादिवर्णः नास्ति. वलादिवर्णः इति कथनेन यकारं विहाय अन्यानि व्यञ्जनानि सर्वाणि वल् प्रत्याहारे सन्ति, ईकारः वलादिवर्णः नास्ति इत्यतः णिच् प्रत्ययः अनिट् प्रत्ययः. णी इति धातोः धातुसंज्ञा भुवादयो धातवः इति सूत्रेण दीयते. णी धातुतः णिच् प्रत्ययः केन सूत्रेण विधीयते?
सनादेः प्रत्ययः अस्ति, अतः सनाद्यन्तः सनादेः धातवः इत्यनेन तत्र णिच् प्रत्ययस्य योजयामः चेत् तत्र यः नूतन धातु निष्पद्यते तस्य धातु इति संज्ञा भवति, परन्तु भुवादयः धातु इत्यनेन न, परन्तु सन्नाद्यन्तः धातुः इत्यनेन तत्र यः नूतन धातु निष्पद्यते तस्य धातु इति संज्ञा भवति.
बहु सम्यक्. नायि इति नूतनधातुः, णिजन्तधातुः. नायि इति नूतनधातोः धातुसंज्ञा सनाद्यन्ताधातवः सूत्रेण दीयते. णी धातुतः णिच् प्रत्ययः प्रेरणार्थे विहितः भवति इति कारणतः णी धातुः चुरादिगणे नास्ति, भुवादिगणे अस्ति. भुवादिगणे अस्ति इति कारणतः अत्र णिच् प्रत्ययः प्रेरणार्थे विधीयते. अत्र हेतुमती च इति सूत्रेण णिच् प्रत्ययस्य विधानं प्रेरणार्थे भवति, किन्तु चुरादिगणीयधातुषु स्वार्थे अपि णिच् विहितः भवति. तस्य कृते तत्र णिच् प्रत्ययस्य विधानार्थं सत्यापपाशवीणातूल इति एकं दीर्घं सूत्रमस्ति, तेन सूत्रेण चुरादिगणीयधातुषु णिच् प्रत्ययः विधीयते, किन्तु अन्येषु गणेषु णिच् प्रत्ययः प्रेरणार्थे विधीयते, तत्र हेतुमती च इति सूत्रेण णिचः विधानं भवति. णी धातुतः नायि रूपं साधयतु.
नियोग ई कुर्मः चेत् तत्र वयं जानीमः अत्र यः प्रत्ययः अस्ति सः णित् प्रत्ययः, सो अत्र णी इति धातु अजन्तम् अस्ति, अतः अत्र अचो निनिति इति सूत्रेण तत्र वृद्धिकार्यं करणीयम्. इत्युक्ते धातु अजन्तम् अस्ति, तस्य परे णित् इति प्रत्ययः अस्ति, अतः तत्र अचो निनिति इति सूत्रेण वृद्धिकार्यं. सो ईकारस्य वृद्धि ऐकारः, सो नञ् योग ई कुर्मः चेत् तत्र अनन्तरम् एचोयवायावः इति सूत्रेण तत्र आय इति आदेशः भवति. सो आय योग ई, सो नाय नायि इति यः नूतन धातु निष्पद्यते.
उत्तमम्. अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रं बाधित्वा णी इति ईगान्तम् अङ्गम् अस्ति, किन्तु अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रं बाधित्वा अपवादत्वेन अचोणिति इति सूत्रं कार्यं करोति. यथा भगिन्या उक्तम्, अजन्तम् अङ्गम् अस्ति इति कारणतः अचः वृद्धिः भवति णिति णिति प्रत्यये परे. अत्र णिच् प्रत्ययः णित् प्रत्ययः, अतः णित् प्रत्ययं निमित्तीकृत्य अचोणिति इति सूत्रेण अजन्ताङ्गस्य वृद्धिः भवति, तेन नञ् इति रूपं सिद्ध्यति. ईकारस्य वृद्धिसंज्ञकवर्णः ऐकारः. नायि इति नूतनधातुः, नूतनधातोः धातुसंज्ञा सनाद्यन्ताधातवः सूत्रेण दीयते. नायि इति नूतनधातुः, अस्माभिः निर्मितः धातुः, णिजन्तधातुः. इदानीं नायि धातुतः नाययति रूपं साधनीयं. वदतु.
नायि इति यः नूतनधातुः अस्ति, अस्माकं विवक्षा लट् लकार एकवचनस्य विवक्षा अस्ति, अतः तत्र प्रथमे तु वर्तमाने लट् इत्यनेन तत्र लट् लकारः आयाति, पर अनन्तरं तत्र लस्य इति स्थाने तत्र ल एव अवशिष्यते, अतः तत्र लस्य इति अधिकारसूत्रेण तत्र किं भवति, तत्र तिङ् त्यवादेशः आयाति, तिङ् प्रत्ययः आयाति. सो अस्माकं विवक्षा एकवचनस्य अस्ति, अतः अत्र तत्र सूत्रद्वयम् अपि अपेक्षितम्. एकमस्ति तिङ्गस्तिनि त्रीणि प्रथमा एकवच प्रथमा मध्यम उत्तमः, अनन्तरं तानि एकवचन द्विवचन बहुवचन बहुवचनानि एकशः. सो अत्र एकवचनस्य विवक्षा अस्ति, अतः अत्र त्यप् इति प्रत्ययः आयाति. त्यप् इति प्रत्ययः वयं जानीमः लट् लकारः अस्ति, अतः सार्वधातुक पित् प्रत्ययः, सार्वधातुक पित् प्रत्ययः अस्ति, अपि च अतः अत्र धातु साक्षात् अनन्तरं सार्वधातुक प्रत्ययः दृश्यते, अतः अत्र अत्र कृत किं सूत्रं कर्तरि शप् कर्तरि शप् सार्वधातुके इति सूत्रेण तत्र शप् प्रत्ययस्य शप् प्रत्ययः मध्ये आयाति. सो नायि योग शप् योग ति कुर्मः. सो शप् इति अत्र यः सनाद्यन्तः धातवः अस्ति तेषां तत्र घनचिन्तनं न करणीयम्, इत्युक्ते तत्र शप् प्रभाद्य अन्यविकरणप्रत्ययः न आयाति, तत्र शप् एव तिष्ठति यदि वयं कोऽपि सनादि प्रत्ययः योजयामः चेत्.
बहु सम्यक्. शप् प्रत्ययः कर्तरि शप् सूत्रेण आयाति, किन्तु कर्तरि शप् इत्यस्मिन् सूत्रे कस्मिन् गणे आयाति इति प्रश्नः नास्ति. अत्र कर्त्रर्थकसार्वधातिक तिङ् प्रत्ययः अस्ति चेत् शप् आगन्तुं शक्नोति इति खलु वक्तव्यम्?
अत्र कर्तरि शप् इत्यनेन शप् इति प्रत्ययः आयाति. सो अत्र नायि योग शप् योग इत्युक् कुर्मः चेत् तत्र वयं जानीमः शप् शकारपकारयोः इत्संज्ञा भूत्वा लोपः अपि भवति, तत्र अ एव अवशिष्यते. सो अत्र शप् यः प्रत्ययः अस्ति सः सार्वधातुक पित् प्रत्ययः, अङ्गम् अपि इगन्तम् अस्ति. नायि इति यः अङ्गम् अस्ति सः इगन्तम् अङ्गम् अस्ति, अन्ते इकारः अस्ति, अतः अत्र गुणकार्यं भवति. इकारस्य गुणः एकारः. सो नाये योग अ योग ति. सो अनन्तरं तत्र वयं जानीमः तत्र सन्धिकार्यं करणीयम् ए योग अ अस्ति, अतः एचोयवायवः इति सूत्रेण तत्र एकारस्य स्थाने तत्र ऐ इति आदेशः. सो अत्र नाय नाय इकारस्य स्थाने ए अनन्तरम् अय अस्तु, नायय इति अङ्गम्. नाययः अस्ति, अनन्तरं तिप् प्रत्ययः अस्ति, परन्तु अत्र अन्तिम यः वर्णः सः अकारः, शप् प्रत्ययस्य यः अकारः अन्ते इगन्तं नास्ति, तिप् प्रत्ययः निमित्तीकृत्य इगन्तम् अङ्गं नास्ति, अतः अत्र गुणकार्यं न भविष्यति. सो नाय योगति नाय तत्र अयोगति अस्तु, अत्र केवलं वर्णमेलनं तत्र करणीयं. नाययति इति यः अस्ति सः निजन्त लटीरूपम्.
बहु सम्यक् भगिनी. अत्र नायि इति नूतनधातुः अस्ति, तावत्पर्यन्तम् आर्धधातुकप्रक्रिया. नाययति इति पदस्य रूपसिद्धिः तु सार्वधातुकप्रक्रिया, इत्युक्ते अत्र प्रक्रियाद्वयम् अस्ति. नायि धातोः निर्माणपर्यन्तम् आर्धधातुकप्रक्रिया भवति, पश्चात् सार्वधातुकप्रक्रिया. नी धातुतः नाययति इति णिजन्तयुक्तं लटीरूपं. साधु भगिनी, बहु सम्यक्. इदानीं सुन्दरमहोदय, भवान् वदतु नेतुम् इति नी धातुतः तुमन्नन्तं रूपं साधनीयं. नेतुं साधयतु.
नेतुम् इति रूपं साधनीयम्. अत्र नी नी धातुतः तुमन्नन्तं प्रत्ययस्य योजनेन तुमुन् प्रत्ययः कृत् प्रत्ययः तुमुन् प्रत्ययः कृत् प्रत्ययः एव तिङ् प्रत्ययः नास्ति इति कृत तिङ् इति सूत्रेण तुमुन् प्रत्ययः कृत् प्रत्ययः अस्ति. नकारस्य
तुमुन् प्रत्ययस्य स्वभावः कः इति प्रश्ने सति इतोपि किञ्चित् वक्तव्यम्.
आम्, तुमुन् प्रत्ययस्य स्वभावः तुमुन् प्रत्ययः आर्धधातुकप्रत्ययः अस्ति. एवं नकारस्य हलन्त्यम् इति सूत्रेण
तुमुन् प्रत्ययः आर्धधातुकं शेषः इति सूत्रेण आर्धधातुकप्रत्ययः, अपि च कृदतिङ् सूत्रेण कृत् प्रत्ययः, इतोपि
अपि च तुमुन् प्रत्ययः तकारः अस्ति प्रथमम् इति. ओके, अपि च तुमुन् प्रत्ययः
किं वक्तव्यम्? आर्धधातुक कित् नित् 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 भिन्नः
कित् कित् नित् नित् भिन्नः इति कारणेन तस्य तस्य गुणस्य बाधा नास्ति, गुणकार्यस्य बाधा नास्ति इति कारणेन गुणः भवितुम् अर्हति. तदनन्तरं नकारस्य हलन्त्यम् इति सूत्रेण नकारस्य ईत्संज्ञा भूत्वा लोपः भवति. तदनन्तरं तुम् एव अवशिष्यते.
नकारस्य ईत्संज्ञा भवति, नकारात् पूर्वम् अथवा मकारोत्तरवर्ती उकारः अस्ति, सः उकारः उच्चारणार्थः इति मया पठितं. तुमन् इत्यत्र किम् अवशिष्यते?
तुम् उच्चारणार्थम् एव, उकारः उच्चारणार्थः एव इति कारणेन तुम् एव अवशिष्यते, तुम् एव अवशिष्यते. तदनन्तरं नी धातुः इगन्तधातुः, नी धातुः इगन्तधातुः इति कारणतः तस्यापि गुणस्य प्रसक्तिः अस्ति. एवं तुमुन् प्रत्ययः आर्धधातुकप्रत्ययः, एवं कित् ङित् ङित् णित् भिन्नः इति कारणेन तस्यापि गुणस्य बाधा नास्ति, गुणः भवितुम् अर्हति.
पूर्वं किं दृष्टवन्तः? सार्वधातुकपित् प्रत्यये परे यादृशं कार्यं भवति तादृशं कार्यमेव आर्धधातुककित् नित् णित् णित् भिन्नप्रत्यये परे भवति, इत्युक्ते गुणकार्यं भवति खलु.
भवति कित् ङित् णित् ङित् भिन्नः इति कारणेन गुणकार्यं भवति इति कारणेन तुमुन् प्रत्ययः गुणस्य अर्हः. एवं नी इति धातुः इगन्तधातुः इति कारणतः सः अपि गुणकार्यं भवितुम् अर्हति इति कारणेन नियोगे तुम् इति भवति. एवं गुणकार्यं भूत्वा आर्धधातु प्रत्ययस्य गुणकार्यं भूत्वा नी ने भवति गुणकार्यं भूत्वा.
आदौ भवान् किं कृतवान्? धातुं स्वीकृत्य धातुतः अनुबन्धवर्णानां लोपकार्यं कृत्वा लौकिकधातोः रूपं साधितवान्, पश्चात् तुमुन् इति प्रत्ययं स्वीकृत्य तुमुन् प्रत्ययस्यापि लौकिकरूपम् इत्युक्ते अनुबन्धवर्णानां लोपकार्यानन्तरं लौकिकप्रत्ययस्य रूपं साधितवान्, तुमुन् प्रत्ययस्य स्वभावः कीदृशः इति अपि उक्तवान्. एषा प्रक्रिया अर्धधातुकप्रक्रिया, अतः इडागमविचारः करणीयः.
इडागमविचारः ओके, इडागमविचारः करणीयः. तुमुन् प्रत्ययः नी धातुः इडागम अनुकूलः नास्ति. तद् अनिट् धातुः उदात्तात् एकाच अनुदात्तात् इति सूत्रेण सः अनिट् धातुः अस्ति नी धातुः. एवं तुमुन् प्रत्ययः प्रथम स्येड् वलादेः अर्धधातुक स्येड् वलादेः इति सूत्रेण सः अनुकूलः अस्ति, अनुकूलः अस्ति, इडानुकूलः अस्ति. परन्तु धातुः इडानुकूलः नास्ति अनिट् धातुः इति कारणेन तत्र इडागमः न भवति.
तुमन् प्रत्ययः इडनुकूलप्रत्ययः इति वक्तुं तुमन् प्रत्ययः आर्धधातुकप्रत्ययः अपि च कृत् प्रत्ययः अस्ति इति कारणतः न केवलम् आर्धधातुकस्येड् वलादेः नेड् वशीकृति इति सूत्रमपि द्रष्टव्यं. किमर्थं चेत् सः प्रत्ययः आर्धधातुककृत् प्रत्ययः, आर्धधातुककृत् प्रत्ययः अस्ति चेत् तकारः वलादिवर्णः किन्तु वशादिः नास्ति.
वशादिः नास्ति इति कारणेन वशादिप्रत्ययः नास्ति.
वल् प्रत्याहारे वश्यपि अन्तर्भूतः, इत्युक्ते वल् इति कथनेन यकारं विहाय सर्वाणि व्यञ्जनानि आयान्ति, किन्तु कृत् प्रत्ययः अस्ति चेत् केवलं वलादिः इति वदामश्चेत् पर्याप्तं न भवति. वश् प्रत्याहारस्थवर्णः नास्ति चेदेव सः आर्धधातुककृत् प्रत्ययः इडनुकूलः भवति. वदतु.
आम् आर्द्रदातुक ओके सो इति कारणेन सः इडनुकूलः भवति इडनुकूलः भवति तुमुन् प्रत्ययः परन्तु नीधातुः अनिड् धातुः इति कारणेन इडानुकूलः न भवति इति कारणेन इडागमः न भवति अधुना नी धातुः गुणः भूत्वा ने भवति ने योगे तुम् इति भवति
केन सूत्रेण गुणः भवति
केन सूत्रेण आर्धधातुकप्रत्ययः सार्वधातुक अर्धधातुकयोः इति सूत्रेण आर्धधातुक अस्ति किल इति कारणेन सार्वधातुक अर्धधातुकयोः इति सूत्रेण इगन्तधातुः गुणः भवति इति गुणः भूत्वा नी धातुः ने भवति ने योगे तुम् इति भवति वर्णमेलनेन नेतुम् इति अन्तिमं रूपं सिद्ध्यति
तदेव नी धातुः अनिट् धातुः अतः इडागमः नास्ति नेतुम् इडागमरहितं रूपमेव द्रष्टुं शक्नुमः पठितुम् इत्यत्र तुमन् प्रत्ययः इडनुकूलः एव पठ् धातुः अपि सेट् धातुः इत्यतः पठितुम् इत्यत्र इडागमः दृश्यते किन्तु नेतुम् इत्यत्र नी धातुः अनिट् धातुः अतः इडागमः नास्ति नेतुम् इति रूपं बहु सम्यक् साधितवान् महोदयः एषा प्रक्रिया आर्धधातुकप्रक्रिया इदानीं नी धातुतः णुवल् प्रत्ययान्तरूपं साधयतु
आम् इदानीम् ओके नी धातुतः णुवल् प्रत्ययस्य ओके नी धातुतः णुवल् प्रत्ययस्य योजनेन णुवल् प्रत्ययः णुवल् प्रत्यये नकारः इत्संज्ञा भूत्वा लोपः भवति लकारः अपि हलन्त्यम् इति सूत्रेण सोरि नकारः चुटु इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति लकारः हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति इति कारणेन सः प्रत्ययः णित् प्रत्ययः इति णित् प्रत्ययः इति कारणेन णित् प्रत्ययः णित् प्रत्ययस्य इति कारणेन सः वृद्धिः भवति णित् प्रत्ययस्य प्रत्ययः इति कारणेन सः वृद्धिः भवति नियोगे वु एव अवशिष्यते
इतोपि किञ्चित् स्मर्तव्यं णुवल् प्रत्ययस्य स्वभावः कः इति प्रश्ने सति प्रथमं सोपानम् इत्युक्ते णुवल् प्रत्ययः तिंक्षित् सार्वधातुकं नास्ति इत्यतः अर्धधातुकं शेषः इत्यनेन
अर्धधातुकं शेषः इत्यनेन णुवल् प्रत्ययः अर्धधातुकप्रत्ययः भवति एवं तदनन्तरं अर्धधातुकस्येड् वलादेः इति वल् प्रत्याहारे अस्ति
अत्र स्थगयतु सोपानक्रमेण गच्छामश्चेत् णुवल् प्रत्ययस्य स्वभावः कः इति पृच्छामि चेत् तिंशित् नास्ति इत्यतः आर्धधातुकं शेषः इत्यनेन अर्धधातुकसंज्ञकः अपि च तिङ् प्रत्ययः नास्ति इति कारणतः कृदतिङ् सूत्रेण कृत् प्रत्ययः भवति आहत्य अयं प्रत्ययः आर्धधातुककृत् प्रत्ययः अपि च णकारः इति संज्ञकः अस्ति इति कारणतः आर्धधातुक णित् प्रत्ययः अस्ति धातोः परम् आर्धधातुकप्रत्ययः अस्ति इति कारणतः एषा प्रक्रिया आर्धधातुकप्रक्रिया आर्धधातुकप्रक्रिया अस्ति इति कारणतः इडागमविचारः करणीयः वदतु
इडागमविचारः आर्धधातुकप्रत्ययः अस्ति इति कारणतः इडागमविचारः करणीयः णुल्पत्ययः वकारः णुल्पत्यये वकारः वु एव अवशिष्यते इति कारणेन वकारः आर्धधातुकस्येड् वलादेः इति सूत्रे वलादिप्रत्ययः अस्ति इति कारणेन णुल्पत्ययस्य इडागमविचारः भवति एव इडागमः भवति
अत्र इतोपि चिन्तनमस्ति णुल् प्रत्ययः आर्धधातुकं शेषः इत्यनेन अर्धधातुकसंज्ञकः कृदतिङ्सूत्रेण कृत् संज्ञकप्रत्ययः नूल् प्रत्ययः आर्धधातुककृत् प्रत्ययः अतः सूत्रद्वयं द्रष्टव्यम् इडागमविचारस्य प्रसङ्गे आर्धधातुकस्य एड्वलादेः सूत्रम् अपि च नेड्वश्चीकृतिसूत्रमपि द्रष्टव्यं सूत्रद्वयं परिशील्य अयं प्रत्ययः कीदृशः इति वदतु
प्रथमं आर्धधातुक स्येड् वलादेः इति सूत्रे सः वल् प्रत्याहारे वल् प्रत्याहारे अस्ति इति कारणेन सः आर्धधातु इडागम अनुकूलः परन्तु नेड् वशीकृति इति कारणेन वश् प्रत्याहारे अस्ति इति कारणेन सः इडागमः न भवितुम् अर्हति इडागमः भवति परन्तु द्वितीयसूत्रेण इडागमः न भवति
उत्तमं णुवुल् इति प्रत्यये अनुबन्धवर्णानां लोपकार्य अनन्तरं वु अवशिष्यते उ इति कथनेन वकारोत्तरवर्ती उकारः अस्ति तत्र वकारः अस्ति न तु स्वरवर्णः तत्र व्यञ्जनवर्णः वकारः अस्ति वकारः वलादिवर्णः अपि च वशादिः इत्युक्ते इडागमः भवितुम् अर्धधातुककृत्प्रत्ययस्य आदिमवर्णः वलादिः स्यात् नेड् वशीकृति इति सूत्रेण अत्र वकारः वशादिवर्णः अस्ति इति कारणतः अयं प्रत्ययः अनिट् भवति खलु
अनिट् भवति
वदतु
अनिट् भवति एवं नि इति धातुः अपि अनिट् धातुः भवति एवं तदनन्तरं वु इत्यस्य युवरनाकौ इति सूत्रेण वु इत्यस्य अक इति आदेशः भवति अक इति आदेशः भवति तदनन्तरं ञकारः ञकारः अस्ति णकारः अस्ति णित् प्रत्ययः अस्ति इति कारणेन सः तत्र किं भवति वृद्धिः भवति एवं नियोगे अक नियोगे अकः अक इति भवति तदनन्तरं वृद्धिः भूत्वा नि इति धातुरूपे अङ्गे किं भवति नै भवति वृद्धिः भूत्वा नै भवति तदनन्तरं सन्धिसूत्रेण आयादिसन्धिः भूत्वा एचो अयवायावः इति सूत्रेण सन्धिसूत्रेण नै नाय् भवति नाय् भवति नाय् योगे अक इति भवति नाय् योगे अक नायकः इति अन्तिमं सूत्रं वर्णमेलनेन अन्तिमं रूपं भवति नायकः इति
उत्तमं बहु सम्यक् महोदय तदेव नायक इति प्रातिपदिकमस्ति किन्तु नायकः इति प्रथमाविभक्ति एकवचनरूपम् अस्ति नि इति अजन्तम् अङ्गम् अस्ति अतः सार्वधातुकार्धधातुकयोः इति सूत्रं प्रबाध्य बाधित्वा अपवादत्वेन अचोणिति इति सूत्रेण णूल् प्रत्ययः णित् प्रत्ययः अतः अचोणिति इति सूत्रेण वृद्धिकार्यं भवति नि इत्यस्य ईकारस्य वृद्धिसंज्ञकवर्णः ऐकारः अतः नि इत्यस्य रूपं नै भवति णूल् प्रत्ययं निमित्तीकृत्य आदौ प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति पश्चात् सन्धिकार्यं भवति यचोयवायावः इति सन्धिसूत्रेण यान्तवान्तादेशस्य सन्धिः भूत्वा ऐकारस्य स्थाने आय् आदेशः भवति इत्यतः अन्ततो गत्वा वर्णमेलनेन नायक इति प्रातिपदिकं सिद्ध्यति कृदन्तप्रातिपदिकं कृत् प्रत्ययस्य योजनेन कृदन्तप्रातिपदिकनिर्माणं भवति पश्चादेव सुबन्तनिर्माणं भवति सुप्रत्ययस्य योजनेन तत् सुबन्तं पदम् इति कथयितुम् अर्हः भवति तुमन् प्रत्ययस्य प्रसङ्गे अपि च णुवुल् प्रत्ययस्य प्रसङ्गे सूत्रद्वयं स्मर्तव्यं तुमुन् णुवुलौ क्रियायां क्रियार्थायाम् इति सूत्रं स्मर्तव्यं तेन विधिसूत्रेण तुमन् प्रत्ययः विहितः भवति तेन सूत्रेण एव णुवुल् प्रत्ययः अपि विहितः भवति. अपि च नूल् प्रत्ययस्य प्रसङ्गे नुवल् तृचौ इति सूत्रमपि आवश्यकं. नुवल् तृचौ इति सूत्रेण नुवल् प्रत्ययः धातोः परम् आयाति. अपि च महोदयेन एकं सूत्रमपि उक्तमस्ति, युवोरनाकौ इति सूत्रमस्ति. नुवल् प्रत्यये ऊ इति अवशिष्टभागः अस्ति खलु, अङ्गात् परं धातोः परम् ऊ इति अस्ति इति कारणतः ऊ इत्यस्य स्थाने अक आदेशः भवति. युवोरनाकौ सूत्रमपि आवश्यकं. नुवल् तृचौ इति विधिसूत्रेण धातोः परं नुवल् प्रत्ययः विहितः भवति. अपि च नुवल् प्रत्ययान्तरूपाणि कर्तृपदस्य विशेषणानि भवन्ति. नुवल् प्रत्ययः कर्त्रर्धकप्रत्ययः इत्युक्ते कर्तरीकृत् इति सूत्रेण नुवल् प्रत्ययः कर्त्रर्धकप्रत्ययः भवति. नुवल् अन्तरूपाणि कर्तृपदस्य विशेषणानि भवन्ति. अत्र पश्यन्तु, नायकः इति कर्तृपदस्य विशेषणं भवति. नी धातुतः तृच् इति प्रत्ययस्य योजनेन नेता इति रूपं सिद्ध्यति. नरसिंह हेग्डे महोदय, भवान् वदतु.
नी धातु इति इगन्तदातु अस्ति, अनिट् अस्ति इति अपि वयं दृष्टवन्तः. इदानीं तृच् तृच् इति अर्धधातुक अस्ति, तिङ् नास्ति, शित् नास्ति, अतः अर्धधातुकं शेष इति अर्धधातुकं भवति. अनन्तरम् अर्धधातुक तत्र कित् इत् इत् नित् भिन्न अस्ति, अतः तत्र यथा सार्वधातुकप्रत्ययः अस्ति तथा एव तत्र गुणस्य प्रसक्तिः भवति. सार्वधातुक अर्धधातुक इति सूत्रेण तृच् मध्ये तत्र चकारस्य हलन्त्यम् इति सहज भवति, तस्य लोप इत्यनेन लोपः भवति. तृ इति अवश्यते, तत्र त इति आदिमवर्णतकारः अस्ति. अर्धधातुकसेड्बलादेः इत्यनेन तस्य इडागमः भवितुम् अर्हति. अनन्तरं पुनः कृदतिङ् इत्यनेन कृत् प्रत्ययः अस्ति. अनन्तरं नेड् वशीकृति इत्यनेन तत्र अवशादि अस्ति, अतः नेट् भवति, अतः तत्र इडागमस्य कोऽपि प्रसक्तिः नास्ति. इदानीं नियोगतृ
तृच् प्रत्ययस्य स्वभावः कः इति बहु सम्यक् उक्तवान्. अर्धधातुकं शेषः सूत्रेण तिङ्क्षित् नास्ति इत्यतः अर्धधातुकसंज्ञकः एव. अपि च अर्धधातुक कित् नित् णित् नित् भिन्नः साधु. अपि च अयं प्रत्ययः तिङ् नास्ति इति कारणतः कृत् प्रत्ययः. अन्ततो गत्वा तृच् प्रत्ययः अर्धधातुकसंज्ञकप्रत्ययः, धातोः परम् अर्धधातुकसंज्ञकप्रत्ययः अस्ति. इत्युक्ते धातुः साक्षात् अर्धधातुकप्रत्ययं पश्यति, अतः अर्धधातुकप्रक्रिया, अतः इडागमविचारः करणीयः. पुनः एकवारम् इडागमविचारं करोतु.
इडागमविचारः तृच् इति तत्र आदिमवर्णतकारः अस्ति, अतः अर्धधातुक सेड् वलादे इत्यनेन तस्य इडागमस्य प्रसक्तिः भवति. एतत् कृत् प्रत्ययः अपि अस्ति, अतः तत्र अन्यत् सूत्रमपि तस्यापि प्रसक्तिः भवति, नेड् वशीकृति इत्यनेन. तत्र त इति अवशादिवर्णः अस्ति, अतः तत्र इडागमस्य प्रसक्तिः नास्ति, अनिट् भवति.
तथा वदामः वा, वशादिः नास्ति, वलादिः अस्ति इति कारणतः
तत्र इडागमस्य इडागमनिषेधः भवति, तत्र इडागमस्य प्रसक्तिः नास्ति.
नीलं भगिनी, अर्धधातुककृत् प्रत्ययानां प्रसङ्गे सः प्रत्ययः वलादिः अस्ति किन्तु वशादिः नास्ति चेत् किं भवति?
तत्र वशादि नास्ति चेत् वलादि अस्ति, वशादि नास्ति चेत् इडानुकूलः.
इडानुकूलः
इडानुकूलः भवति, परन्तु अत्र धातु अनिट् इति अस्ति इति कृत्वा तत्र इडागमः न भवति. क्षम्यताम्, अवशादि कृत्वा सेट् भवति, परन्तु धातु अनिट् इति कृत्वा तत्र इडागमस्य प्रसक्तिः नास्ति. इदानीं नियोगतृ तत्र गुणः भूत्वा नेतृ इति रूपं भवति. अनन्तरं नेता नेतारौ नेतारः इति भवति.
उत्तमं, नेतृ इति प्रातिपदिकं सिद्ध्यति. नेतृ इति प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति. पुंलिङ्गे नेता इति रूपं भवति, स्त्रीलिङ्गे नेत्री इति रूपं भवति, नपुंसकलिङ्गे नेतृ नेता इति रूपं साधयितुं बहूनि सूत्राणि ज्ञातव्यानि. तत्र बहूनि सूत्राणि आवश्यकानि. कर्तृ इति प्रातिपदिकात् कर्ता इति रूपं साधयितुं तत्र सुबन्तप्रक्रिया आवश्यकी. रुदुशन स्फुरु दंश नेहसां च इति सूत्रेण अनङ्गादेशः भवति. तत्र बहूनि सूत्राणि आवश्यकानि इति भाति. सुबन्तप्रक्रियायाः प्रसङ्गः अद्य मास्तु. अत्र तु प्रातिपदिकं निर्मामः. नेतृ इति प्रातिपदिकं तृच् प्रत्ययः णुवुल् तृचौ इति विधिसूत्रेण आयाति. धातुतः तृच् प्रत्ययस्य विधानं भवितुं णुवुल् तृचौ इति सूत्रमपि आवश्यकमस्ति. आदौ धातुतः अनुबन्धलोपं कुर्मः, पश्चात् प्रत्ययस्य स्वभावः कीदृशः, धातोः परं प्रत्ययस्य स्वभावम् अनुसृत्य कार्याणि भवन्ति. अत्र तृच् प्रत्ययः आर्धधातुक कित् नित् णित् नित् भिन्नः, तादृशप्रत्यये परे गुणकार्यं भवति. नी इति इगन्तमङ्गमस्ति. नी धातोः परं तृच् प्रत्ययः आर्धधातुकसंज्ञकप्रत्ययः. तृच् प्रत्ययं निमित्तीकृत्य नी इति धातुरूपी अङ्गे इगन्तमङ्गमस्ति इति कारणतः केवलं णित् णित् प्रत्ययपरे एव वृद्धिकार्यम्. अजन्तमङ्गमस्ति चेत् णी इति अजन्तमङ्गमपि भवितुमर्हति, ईगन्तमपि भवितुमर्हति. अच् इत्यस्मिन् इक् अन्तर्भूतं खलु. अत्र णी धातोः परं तृच् प्रत्ययः अस्ति इति कारणतः गुणकार्यं भवति. सार्वधातुकार्धधातुकयोः सूत्रेण भवति. अतः णी धातुतः नेत्र इति प्रातिपदिकम्. इदानीं क्तान्तरूपं साधयतु.
तत्र नियोगक्त, तत्र नी इति वयं पूर्वमेव दृष्टवन्तः, इगन्तदातु अस्ति, अनिट् अस्ति. इदानीं क्त तत्र ककारसंज्ञा भवति लशक्तदिति इत्यनेन. प्रथमतया क्त इति अर्धदातुक अस्ति, कृदतिङ् इत्यनेन. कृत् तिङ् नास्ति, अतः कृत् कृदतिङ् इत्यनेन कृत् प्रत्ययः भवति. संज्ञा लशक्तदिति इत्यनेन तत् अवशिष्यते. ककारस्य संज्ञा इति कृत्वा कित् अस्ति, तदिति चेत् सूत्रेण तस्य गुणस्य प्रसक्तिः न भवति. इदानीम् अर्धधातुक कृत् प्रत्ययः अस्ति, अतः इडागमस्य प्रसक्तिः. त इति वलादिवर्णः अस्ति, अतः अर्धधातु फेड् वलादि इत्यनेन इडागमस्य प्रसक्तिः. परन्तु कृत् तदपि अस्ति, अतः नेड् वशीकृति इति पश्यामः चेत् तत्र त इति अवशादि अस्ति, अतः सेट् अस्ति. परन्तु धातु नि इति अनिट् इति कृत्वा तत्र अन्ततः गत्वा इडागमः न भवति, तत्र गुणः अपि न भवति. कित् इति कृत्वा इदानीं नियोग त नीत एव रूपं भवति.
उत्तमं, बहु सम्यक्. नीत इति प्रातिपदिकं कृदन्तप्रातिपदिकं क्तान्तप्रातिपदिकं नीत. नीत इति प्रातिपदिकं स्वीकृत्य सुबन्तप्रक्रियाम् उपयुज्य त्रिषु लिङ्गेषु, त्रिषु वचनेषु, सप्तसु विभक्तिषु एकविंशति रूपाणि साधयितुं शक्नुमः. अत्र प्रातिपदिकमस्ति नीत, किमपि कार्यं नास्ति. नी धातोः परं कित् प्रत्ययः अस्ति, क्ता प्रत्ययः कित् प्रत्ययः, कित्वात् गुणनिषेधः क्निति च सूत्रेण. अतः नियोगः त नीत इति रूपमेव भवति. क्ता प्रत्ययः आर्धधातुकसंज्ञकप्रत्ययः, अपि च कित् प्रत्ययः आर्धधातुक कित् प्रत्यये परे गुणनिषेधः. अतः नीत इति रूपं सिद्ध्यति. क्ता प्रत्ययस्य प्रसङ्गे इतोपि किं ज्ञातव्यं? व्याकरणे बहवः संज्ञाः सन्ति खलु. तादृशेषु संज्ञासु अन्यतमा संज्ञा अस्ति निष्ठा इति संज्ञा अस्ति. अयं क्ताप्रत्ययः निष्ठासंज्ञकप्रत्ययः. क्ता क्तवतु निष्ठा इति सूत्रेण क्ताप्रत्ययः अपि च क्तवतु प्रत्ययः, एतत् प्रत्ययद्वयं निष्ठासंज्ञकप्रत्ययद्वयं भवति. क्ताप्रत्ययस्य प्रसङ्गे बहवः अपवादाः सन्ति इति स्मर्तव्यः अंशः. क्ताप्रत्ययस्य प्रसङ्गे, क्तवतु प्रत्ययस्य प्रसङ्गे अपि उपद्विसहस्रं धातवः सन्ति खलु, कुत्रचित् अपवादाः आयान्ति. विशेषतया क्ताप्रत्ययस्य प्रसङ्गे बहवः अपवादाः सन्ति इति ज्ञातव्यं. क्ता क्तवतु निष्ठा इति सूत्रेण अयं प्रत्ययः निष्ठासंज्ञकप्रत्ययः भवति इति अपि स्मर्तव्यम्. क्ताप्रत्ययस्य प्रसङ्गे यादृशं चिन्तनम् आवश्यकं, तादृशं चिन्तनमेव क्तवतु रूपसिद्धौ अपि तादृशं चिन्तनमेव भवति. एवमेव क्त्वा, क्त्वा प्रत्ययस्य प्रसङ्गे अपि एतादृशं चिन्तनमेव करणीयम्. महोदय, भवान् वदतु, नी धातुतः क्तवतु योजयतु.
तवतु, तत्र तवतु इत्यत्र तदपि अर्धदातुकम् अस्ति, कृदतिङ् इत्यनेन कृत्पत्ये अपि अस्ति, अर्धदातुकं दीक्षित् सार्वदातुकम् इत्यनेन अर्धदातुं शेत इत्यनेन अर्धदातुं शेष इत्यनेन अर्धदातुकः कृदतिङ् इत्यनेन कृत्पत्ययः. तव तु इत्यत्र पुनः ककारसंज्ञा अस्ति लशक्तद्वितीयदिनेन, तत्र अन्तिम उकार अनुनासिक अस्ति अथवा उपदेशे अनुनासिक इत्यनेन तत्र तस्यापि संज्ञा भवति, तस्य लोप इत्यनेन द्वयो लोपः भवति, तवत् इति अवशिष्यते. तवत् इति तत्र कित् अस्ति इति कृत्वा गुणस्य प्रसक्तिः नास्ति. तत्र इडागमं पश्यामः चेत् त इति बलादिवर्णः अस्ति, आर्धसेड् बलाद् इत्यनेन इडानुकूलः अस्ति. अनन्तरं नेड् वशीकृत् प्रत्यय अस्ति, अतः नेड् वशीकृति इत्यनेन अवशादि अस्ति, अतः सेट् भवति. परन्तु नी इति अनिटति कृत्वा तत्र इडागमस्य प्रसक्तिः नास्ति. तवत् एव अवशिष्यते, गुणः नास्ति. नीयोगतवत् नीतवत् इति रूपं भवति.
उत्तमं. क्तान्तरूपप्रसङ्गे यादृशं चिन्तनं भवति तादृशं चिन्तनमेव क्तवतु प्रत्ययस्य प्रसङ्गे अपि भवति. क्त्वान्तरूपमपि एवमेव साधयामः. क्त्वा इति प्रत्ययः अस्ति. महोदय, भवान् वदतु, क्त्वा प्रत्ययस्य प्रसङ्गे किं भवति?
क्त्वा प्रत्ययस्य कृते तत्रापि कित् अस्ति, अतः गुणः नास्ति, पुनः इडागमपि नास्ति, तत्र अवशादिवर्णः अस्ति, इडागमस्य प्रसक्तिः अस्ति, परन्तु तत्र नी इति धातु अनिट् कृत्वा इडागमः न भवति. नियोगत्वा नीत्वा एव भवति.
बहु सम्यक्. नीत्वा इति रूपम्. एतादृशं चिन्तनमेव क्तिन् प्रत्ययस्य प्रसङ्गे अपि भवति. क्तिन् इति प्रत्ययः अपि कित् प्रत्ययः. वदतु.
क्तिन् इति तत्रापि कित् अस्ति, गुणस्य प्रसक्तिः नास्ति, ती अवशिष्यते तत्र इसंज्ञा भूत्वा. नियोग ती, तत्रापि इडागमस्य प्रसक्तिः नास्ति, ती इति यतोहि बलादि अस्ति परन्तु अवशादि अस्ति, परन्तु सेट् भवितु भवति स्म, परन्तु धातु वनिट् इति कृत्वा तत्रापि समानमेव इडागमः भवति.
अत्र इतोपि किञ्चित् चिन्तनीयम् अस्ति. अत्र यथा महोदयेन उक्तं, क्तिन् इति प्रत्ययस्य स्वभावः कः इति प्रश्ने सति, क्तिन् प्रत्ययः तिंशित् नास्ति इत्यतः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः, ककारः इति संज्ञकः अस्ति इति कारणतः कित् प्रत्ययः आर्धधातुककित् प्रत्ययः, अतिङ् प्रत्ययः इत्यतः कृत् प्रत्ययः, अन्ततो गत्वा क्तिन् प्रत्ययः आर्धधातुककृत् प्रत्ययः कित् प्रत्ययः. आर्धधातुकप्रत्ययः धातोः परमस्ति इति कारणतः इडागमविचारः करणीयः. अत्र आर्धधातुकस्येड्वलादेः इति सूत्रेण क्तिन् इति प्रत्ययस्य अनुबन्धवर्णानां लोपकार्यानन्तरम् आदिमवर्णः तकारः अस्ति, तकारः वलादिवर्णः, अपि च अयं प्रत्ययः आर्धधातुककृत् प्रत्ययः अस्ति इति कारणतः नेड् वशीकृतिसूत्रं कार्यं करोति वा इति द्रष्टव्यम्. नेड् वशीकृति इति सूत्रेण क्तिन् प्रत्ययस्य तकारः वशादिः नास्ति, अतः इडागमः भवति इति वक्तुं शक्यते. किन्तु अत्र इतोपि चिन्तनमस्ति. आर्धधातुकस्येड्वलादेः इति सूत्रेण तकारः वलादिवर्णः एव, नेड् वशीकृति इति सूत्रेण वशादिः नास्ति इति तु सत्यमेव, अतः अयं प्रत्ययः सेट् भवति इति
सूत्रमेकमस्ति. सूत्रतः सूत्रमस्ति, तत्र ती प्रत्यये कृते इडागमः न भवति.
अत्र तदपि वक्तव्यं. साधारणतया किं चिन्तनं कुर्मः, अनुबन्धवर्णानां लोपकार्यानन्तरं क्तिन् प्रत्ययस्य तकारः अवशिष्यते. तकारः वलादिः, वशादिः नास्ति, अतः इडनुकूलता वर्तते इति चिन्तयामः. किन्तु अत्र एकं विशिष्टं सूत्रं कार्यं करोति. विशिष्टसूत्रेण क्तिन् प्रत्ययः अनिट् भवति. महोदयेन उक्तमेव, त्री तु त्र ता थ सी सुर कसेषु च इति एकं सूत्रमस्ति. ती तु त्र ता थ सी सु सर कस एतेषां दशानां वलादिप्रत्ययानाम् इडागमः न भवति. एतेषां दशानां वलादि आर्धधातुकप्रत्ययानाम् इडागमः न भवति. भूधातुः सेट् धातुः एव, तस्य क्तिन् रूपं भूतिः इत्युक्ते क्तिनन्तरूपेषु इडागमः न दृश्यते. भूतिः धातोः आनुकूल्यमस्ति चेदपि क्तिन् प्रत्ययः विशिष्टसूत्रेण अनिट् भवति, तत् सूत्रमपि अत्र स्मर्तव्यम्। इत्युक्ते तकारः वलादिः वशादिः नास्ति इति वदनेन तत्र पर्याप्तं नास्ति, विशिष्टसूत्रेण क्तिन् प्रत्ययः अनिट् भवति। दश आर्धधातुकवलादिप्रत्ययाः तस्मिन् सूत्रे उक्ताः, तेषां प्रसङ्गे इडागमः न भवति। तेषु दशसु प्रत्ययेषु क्तिन् प्रत्ययः अन्यतमः, अपि च क्तिन् प्रत्ययान्तरूपाणि स्त्रीलिङ्गपदानि भवन्ति, तदर्थं सूत्रमस्ति स्त्रियां क्तिन्। इत्युक्ते क्तिन् प्रत्ययान्तरूपाणि स्त्रीलिङ्गे भवन्ति, अपि च क्तिन् प्रत्ययः कर्त्रार्थकप्रत्ययः नास्ति, बुद्धधातोः रूपं बुद्धिः, नीधातोः रूपं नीतिः, मन् धातोः रूपं मतिः। इत्युक्ते क्तिन् प्रत्ययान्तरूपाणि कर्तृपदस्य विशेषणानि भवितुं न अर्हन्ति। स्त्रियां क्तिन् इति सूत्रेण क्तिन् प्रत्ययान्तपदानि स्त्रीलिङ्गपदानि भवन्ति, अपि च अकर्तरी इत्युक्ते क्तिनन्तरूपाणि कर्तृपदस्य विशेषणानि न भवन्ति इति एव वक्तुमिच्छामि। महोदय, नीतिः साधयतु।
नीति तत्र नियोगति, तत्र स्थिति कृत्वा गुणः न भवति, अतः वर्णमेलनं नीति एव भवति।
साधु महोदय। सत्यभामा भगिनी, भवती वदतु, नी धातुतः तव्यत् प्रत्ययस्य योजनेन किं भवति?
नीति इगन्धधातुः अस्ति, अयं धातुः एकाच् धातुः, अपि च तव्यत् इति प्रत्ययः तिङ् अपि नास्ति, शित् अपि नास्ति, अर्थधातुकप्रत्ययः अस्ति, अतः अर्थधातुकप्रक्रिया एव करणीयः। तव्यत् इति प्रत्ययः अनुबन्धलोपानन्तरं तव्य इति वर्तते, अत्र अयम् इति कृत्वा तत् तिङ् कित् अपि नास्ति, ङित् नास्ति, ञित् ञित् भिन्नप्रत्ययः, अतः गुणाकारस्य प्रसक्तिः अस्ति। अस्ति तव्यत् इदानीं नियोगः तव्य इति स्थितिः, अत्र तव्यत् प्रत्ययः इदनुकूलता अस्ति वा इति चिन्तनीयं। तकारः वलादिः अस्ति, तव्यत् प्रत्ययः कृत् प्रत्ययः, अतः वशादिः अस्ति वा इति द्रष्टव्यं। वशादिः नास्ति, अतः इत् अनुकूलता तस्मिन् प्रत्यये वर्तते, परन्तु नी धातुः उपदेशावस्थायाम् एकाच् धातुः अस्ति, अतः तस्य इत् अनुकूलता नास्ति इति कृत्वा अत्र इदागमः न भवति। नियोगः तव्य इति स्थिति, इदानीं गुणकार्यस्य प्रसक्तिः अस्ति, अतः नी इति इत्यस्य सार्वधातुक आर्थधातुकयोः इत्यनेन ने इति भवति, इकारस्य गुणवर्णः एकारः गुणादेशः भूत्वा नेतव्य इति रूपम्।
उत्तम उत्तम, नेतव्य इति प्रातिपदिकमस्ति, तव्यत् प्रत्ययान्तरूपाणि अपि त्रिषु लिङ्गेषु सम्भवन्ति, नेतव्यं, नेतव्यः,
नेतव्या
इति रूपाणि भवन्ति, त्रिषु लिङ्गेषु सप्तसु विभक्तिषु अपि तस्य रूपाणि भवितुमर्हन्ति। तव्यत्तव्यानियरः इति विधिसूत्रेण तव्यत् प्रत्ययस्य विधानं भवति, तत्र विधिसूत्रमस्ति तव्यत्तव्यानियरः, इत्युक्ते धातोः परं तव्यत् प्रत्ययः, तव्यप्रत्ययः, अनियर् प्रत्ययः, एतेषां त्रयाणां विधानं धातोः परम् अनेन विशिष्टसूत्रेण भवति, तव्यत्तव्यानियरः इति सूत्रमस्ति। नीधातुतः तव्यत् प्रत्ययस्य विधानमपि आर्धधातुकप्रक्रियायाम् अन्तर्भूतमस्ति, एषा अपि आर्धधातुकप्रक्रिया एव। अनन्तरं नीधातोः परम् अनियर् इति प्रत्ययं योजयामः, भवती वदतु।
धातुः अनियर् प्रत्ययः, नी इति गन्धधातुः अस्ति, अनियर् इति किञ्चित् नास्ति, अतः अयं प्रत्ययः आर्थधातुकप्रत्ययः, प्रक्रिया आर्थधातुकप्रक्रिया च। अनियर् प्रत्ययस्य अन्तिमवर्णः आकारः अस्ति, इदम् तस्मात् पूर्वम् अनियर् प्रत्ययः कित् ञित् 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 भिन्नप्रत्ययः अस्ति, अतः गुणकार्यस्य प्रसक्तिः अस्ति,
अयं प्रत्ययः आर्धधातुक कित् नित् णित् नित् भिन्नः खलु? वदतु.
इडागमः चिन्तनीयं, यतोहि अयं प्रत्ययः कृत् अपि अस्ति, अतः आदौ बलादि अस्ति वा इति द्रष्टव्यं. बलादिः नास्ति इति कृत्वा तत्र इडागमः न भवति.
कः वर्णः बलादिः नास्ति?
अकारः बलादिः नास्ति.
अनुबन्धलोपं करोतु.
अनीयर् इत्यत्र अन्तिमवर्णः अनीया इति अवशिष्यते. अन्तिमवर्णः रेफः हलन्त्यम् इति सूत्रेण अपगच्छति. अनीय इति तिष्ठति.
अनीय इत्यत्र प्रत्ययस्य आदिमवर्णः अकारः. अकारः वल् प्रत्याहारे नास्ति खलु?
आम् नास्ति.
वदतु.
अतः इडागमः न भविष्यति भवति. इदानीं नियोगः अनीय इति स्थितिः. गुणकार्यस्य प्रसक्तिः अस्ति, प्राप्तिः अस्ति. अतः नि इत्यत्र सार्वधातुक अर्थधातुकयोः इत्यनेन गुणः ने इति भवति. ने योगः अनीय, अत्र पुनः सन्धिकार्यं भवति. व्यान्तवादादेशसन्धिः प्रसक्तिः अस्ति. ने एकारः योगः एकारः एच् वर्णस्य अनन्तरम् अच् वर्णः अस्ति, अतः अयादेशः भवति. नययोगः अनीय, नयनीय इति रूपं भवति.
उत्तमं. नयनीय इति रूपं भवति. अत्र प्रत्ययस्य स्वभावः कः इति प्रश्ने सति, अनियर् प्रत्ययः तिङ्क्षित् नास्ति इत्यतः आर्धधातुकप्रत्ययः, इत्युक्ते धातोः परम् आर्धधातुकप्रत्ययः अस्ति इत्यतः एषा प्रक्रिया आर्धधातुकप्रक्रिया. अपि च अयं प्रत्ययः कित् नित् णित् णित् भिन्नः, अतः तादृशप्रत्ययनिमित्तीकृत्य गुणकार्यं भवितुम् अर्हति इति पठितम्. चित्रं दृष्ट्वा वयम् अवगतवन्तः आर्धधातुक कित् नित् णित् णित् भिन्नप्रत्ययः अस्ति चेत्, अपि च धातुः कीदृशः. नि इति धातुः इगन्तधातुः, इगन्तमङ्गमस्ति. इगन्तधातोः परम् आर्धधातुक कित् नित् णित् णित् भिन्नप्रत्ययः अस्ति. इगन्तं धातुरूपी अङ्गमस्ति, अतः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भूत्वा ने भवति. सन्धिकार्यं भूत्वा अयादेशः, पश्चात् नयनीय इति रूपं भवति वर्णमेलनेन. अनियर् प्रत्ययस्य विधानार्थं तव्यत्तव्यानियरः इति सूत्रं कार्यं करोति. तेन विधिसूत्रेण अनियर् प्रत्ययः धातोः परं विहितः भवति. नीधातुतः अनियर् इति प्रत्ययस्य विधानं तव्यत्तव्यानियरः इति सूत्रेण विधीयते. तस्मिन् सूत्रे तव्यप्रत्ययः, तव्यत् प्रत्ययः, अनियर् प्रत्ययः उक्तः. सुन्दरमहोदय, भवान् किं वक्तुमिच्छति?
आम्, एकः सन्देहः भगिनि. अत्र आर्धधातुक प्रक्रिया अस्ति अनियर् प्रत्ययस्य. अत्र वलादिवर्णः नास्ति इति कृत्वा नेड् वशीकृति इति सूत्रं परिशीलनीयं न वा, न परिशीलनीयं वा?
तस्य अवसरः एव नास्ति खलु.
आम्, द्वितीयं सूत्रं न न परिशीलनीयम्.
उत्तमं. प्रथमसूत्रेण एव अत्र निषेधः भवति. आर्धधातुकस्य एड्वलादेः इति सूत्रेण एव अनियर् इति प्रत्ययस्य अनुबन्धवर्णानां लोपकार्यानन्तरम् अनीय अवशिष्यते. अनीय इत्यत्र प्रत्ययस्य आदिमवर्णः अकारः अस्ति. अकारः वलादिवर्णः नास्ति. कार्यं समाप्तम्. इतोपि अग्रे गमनस्य आवश्यकता नास्ति. नेड् वशीकृति इति सूत्रस्य अवसरः अत्र नास्ति एव. प्रथमसूत्रेण एव अत्र प्रत्ययः अनिट् भवति इति वक्तुं शक्नुमः.
आम् आम्, स्पष्टम्. अधुना स्पष्टं भगिनि.
इतोपि एकं रूपं साधयामः. महोदय, भवान् वदतु, नीधातुतः नयनम् इति ल्युडन्तरूपम् अस्ति, कथं साधनीयम्?
नीधातुतः नयनम् इति साधनीयं. ल्युट् प्रत्ययः अस्ति. ल्युट् प्रत्ययः तत्र लकारस्य लशक् वदति इति सूत्रेण लकारस्य इत्संज्ञा भूत्वा लोपः भवति. तदनन्तरं टकारस्य अपि हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति. यु एव अवशिष्यते. अत्र कृदतिङ् इति सूत्रेण तिंशित् एतत् प्रत्ययः तिंशित् नास्ति इति कारणेन एषः कृदतिङ् इति सूत्रेण अतिङ् प्रत्ययः अस्ति इति कारणेन कृत् प्रत्ययः अस्ति ल्युट् प्रत्ययः कृत् प्रत्ययः अस्ति आर्धधातुककृत् प्रत्ययः अस्ति इति आर्धधातुकं शेषः इति सूत्रेण एतत् आर्धधातुकप्रत्ययः अपि अस्ति एवं कृदतिङ् इति सूत्रेण कृत् प्रत्ययः अपि अस्ति इति कारणेन आर्धधातुकप्रत्यय प्रक्रिया कर्तव्या अत्र इडागमविचारः करणीयः इति कारणेन हलादि ओके हलादि हलादिवर्णः अस्ति अत्र यकारः हलादि वल् प्रत्ययः प्रत्याहारे वल् प्रत्याहारे यकारः वल् प्रत्याहारे नास्ति इति यकारः वल् प्रत्यह ओके हा वल् प्रत्याहारे नास्ति इति कारणेन तत्र आर्धधातुकस्येड् वलादेः इति सूत्रेण वलादिप्रत्ययः नास्ति इति कारणेन तस्य इडागमचिन्तनं नास्ति एव इति कारणेन अग्रे नेड् वशीकृति इति सूत्रं न चिन्तनीयम्।
भगिनी भवती इतोपि सम्यक्तया वदतु, अत्र ल्युट् इति प्रत्ययः अस्ति, ल्युट् प्रत्ययः आर्धधातुकप्रत्ययः, अतः इडागमविचारः भवति। ल्युट् प्रत्ययः इडनुकूलः वा न वा वदतु।
ल्युट् प्रत्ययस्य अनुबन्धलोमानन्तरं यु इति एव अवशिष्यते। अस्यां स्थित्यां यु इत्यस्मिन् स्थाने युवरनागौ इति सूत्रेण अन् आदेशः भवति। यदा अन् आदेशः भवति इदानीं प्रत्ययः अन् इति एव अस्ति, अतः अकारः वलहारे नास्ति इति कृत्वा इडागमः चिन्तनम् अत्र नास्ति।
तथा वक्तव्यं वा, नो चेत् ल्युट् प्रत्ययस्य अनुबन्धवर्णानां लोपकार्य अनन्तरं यु अवशिष्यते। यु इति कथनेन यकारः अपि च उकारः, यु इति प्रत्ययस्य अवशिष्टभागः अस्ति। वल् प्रत्याहारे यकारः नास्ति, यकारः वलादिवर्णः नास्ति, वल् प्रत्याहारे यकारं विहाय अन्यानि व्यञ्जनानि सन्ति।
ततः कदा प्रत्ययस्य आगमः भवति इति चेत् आदौ एव भवति इति कृत्वा एव अहं तादृशम् उक्तवती।
नीलं भगिनी भवती किं चिन्तयति, अत्र यु इति स्वीकुर्मः चेत् यकारः वलि नास्ति इत्यतः अयं प्रत्ययः अनिट् भवति इति वक्तव्यं वा, नो चेत् युवोरनाकौ इति सूत्रस्य आगमनात् परम् अत्र यु इत्यस्य स्थाने अन आदिष्टः भवति इत्यतः अकारः अपि वलि नास्ति इत्यतः सः प्रत्ययः अनिट् प्रत्ययः इति वक्तव्यं वा, भ्रमं विना कथं वक्तव्यं? नीलं भगिनी वदतु।
अत्र अहं चिन्तयामि अत्र आदेशप्रत्ययस्य कृते यः आदेशः अस्ति आदेश अनन्तरम् एव पश्यामः तत्र वल् प्रत्याहारस्य वर्णः वा वश् प्रत्याहारस्य वर्णः। सो प्रत्ययस्य यदि कोऽपि आदेश आदेशानन्तरम् एव तत् द्रष्टव्यम्।
युवोरनाकौ इति सूत्रेण यदा अन आदिष्टः भवति, अत्र अन इत्यत्र आदिमवर्णः अकारः अस्ति, सः अकारः वलि नास्ति इत्यतः ल्युट् प्रत्ययः अनिट् प्रत्ययः। धातुः तु अनिट् एव, किन्तु प्रत्ययः अपि अनिट् इति वक्तव्यं खलु, इत्युक्ते आदेशानन्तरमेव द्रष्टव्यम् इति भवती वदति खलु। अस्तु महोदय, भवान् वदतु इदानीं सुन्दर महोदय।
आदेशानन्तरम् ओके अन इति आदेशः भवति, अकारः वल् प्रत्याहारे नास्ति इति कारणेन आर्धधातुकस्येड् वलादेः इति सूत्रेण सः अनिट् प्रत्ययः अस्ति, इडागमः न भवति इति कारणेन नेड् वशीकृति इति सूत्रस्य प्रसक्तिः एव नास्ति इति कारणेन सः इडानुकूलः नास्ति प्रत्ययः. तदनन्तरं नी धातुः अपि इडागम अननुकूलः अस्ति इति कारणेन तत्र इडागमः न भवति. नियोगे अधुना नियोगे अन इति भवति. तत्र यत्र आर्धधातुकप्रत्ययः अस्ति ल्युट् प्रत्ययः आर्धधातुकप्रत्ययः अस्ति एवं तत्र ञित् णित् कित् ञित् ञित् णित् भिन्नः भिन्नप्रत्ययः अस्ति इति कारणेन गुणस्य प्रसक्तिः अस्ति तत्र. एवं नी नी इति इगन्तधातुः अस्ति. इगन्तधातुः अस्ति इति कारणेन नी नी गुणः भूत्वा नै नी नी ने भवति. तदनन्तरं सन्धिसूत्रेण अयादिसन्धिसूत्रेण एचो अयावायावः इति सन्धिसूत्रेण नै भवति. नै योगे अन नयन इति प्रातिपदिकं सिद्ध्यति. नयनम् इति अन्तिमं रूपं सिद्ध्यति नपुंसकलिङ्गरूपमेव.
साधु महोदय, बहु सम्यक् उक्तवान्. सूत्राणि षड्विधानि खलु, विधिसूत्राणि अपि सन्ति खलु. अत्र ल्युट् प्रत्ययस्य विधानार्थं ल्युट् च इति एकं सूत्रमस्ति. ल्युट् च इति सूत्रेण ल्युडन्तपदानि नपुंसकलिङ्गपदानि भवन्ति. ल्युट् प्रत्ययः धातोः परम् आयाति ल्युट् च सूत्रेण इति अपि स्मर्तव्यम्. धातोः परं नपुंसकलिङ्गे भावार्थे ल्युट् प्रत्ययः विहितः भवति. अस्मिन्नेव प्रसङ्गे युवोरनाकौ सूत्रमपि ज्ञातव्यं खलु. एतत् सूत्रद्वयं स्मर्तव्यं, ल्युट् च युवोरनाकौ इति सूत्रद्वयेन ल्युट् प्रत्ययः विहितः भवति.
युवोरनाकौ इति सूत्रेण अक नूल् प्रत्ययस्य अक इति आदेशः भवति. एवं अत्र ल्युट् प्रत्ययस्य अन इति आदेशः भवति. यत् आदेशः भूत्वा तदनन्तरमेव परिशीलनीयं वा इडागमचिन्तनं, तदेव सन्देहः. आदेश अनन्तरमेव परिशीलनीयं वा इडागमचिन्तनं
इति अहं चिन्तयामि. तत्रापि अक आदिष्टः भवति चेत् अकारः वलादिः नास्ति इति कारणतः तत्रापि आदेशात् परं स्वीकुर्मः चेत् अकारः वलादिः नास्ति इत्यतः सः प्रत्ययः अनिट् भवति इति वक्तुं शक्यते. कोऽपि वदतु अस्मिन् प्रसङ्गे. आदेशात् परमेव इति अहं चिन्तयामि. नरसिंह हेग्डे महोदय, भवान् किं चिन्तयति?
अहं चिन्तयामि आदेशात् परमेव महोदय. आदेशात् परमेव प्रथमम् आदेशं करणीयम्, अनन्तरं इडागम द्रष्टव्यम्.
सम्यक्. नी धातोः प्रसङ्गे कानिचन रूपाणि साधितवन्तः. इतोपि अष्टधातवः सन्ति, तेषां रूपाणि अपि साधयामः. एवं कुर्मः चेत् समयः आवश्यकः भवति. एवं करणीयं वा नो चेत् भिन्नरीत्या कुर्मः वा? इतोपि अष्टधातवः सन्ति. स्वादिगणि यचि धातोः प्रसङ्गे एकवचनरूपं द्विवचनरूपं च साधनीयम्. इदानीम् अत्र स्थगयाम. आगामिन्यां कक्षायां ची धातोः प्रसङ्गे रूपाणि साधयामः. भवन्तः अपि अभ्यासं कुर्वन्तु. अनेन प्रकारेण एव अभ्यासः भविष्यति. सर्वेषां धन्यवादाः.
धन्यवादः.
धन्यवादः.